देव नमस्तुभ्यं प्रसीद मम भास्कर दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते। सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजं श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम्। लोहितं रथमारूढं सर्वलोकपितामहं महापापहरं देवं तं सूर्यं प्रणमाम्यहम्। त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरं महापापहरं देवं तं सूर्यं प्रणमाम्यहम्। ब्रह्मितं तेजसांपुञ्जं वायुराकाशमेव च प्रियं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम्। बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितं एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम्। तं सूर्यं लोककर्तारं महातेजः प्रदीपनं महापापहरं देवं तं सूर्यं प्रणमाम्यहम्। तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदं महापापहरं देवं तं सूर्यं प्रणमाम्यहम्। सूर्याष्टकं पठे नित्यं ग्रहपीडा प्रणाशनम् अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत्। आमिषं मधुपानं च यः करोति रवेर्दिने सप्तजन्म भवेद् रोगी जन्म जन्म दरिद्रता। स्त्रीतैल मधुमांसानि ये त्यजन्ति रवेर्दिने न व्याधि शोक दारिद्र्यं सूर्यलोकं न गच्छति। इति श्री सूर्याष्टकं सम्पूर्णम्।